नमो नमः प्रियाः श्रोतारः, संस्कृत साप्ताहिकी इत्येतस्मिन् कार्यक्रमे भवतां समेषां हार्दिकं स्वागतम् अभिनन्दनं च। अहं ऋचा झा, कार्यक्रमस्योद्घोषिका, उपस्थिता अस्मि नूतनम् अङ्कम् आदाय। अयि संस्कृत सेवारताः श्रोतारः आगच्छन्तु, सम्प्रति कार्यक्रमारम्भे शृण्मः अद्यतनं सुभाषितम् अस्माकं सहयोगिना पुरुषोत्तम शर्मणा सह।
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः, तस्मात् प्रियं हि वक्तव्यं वचने कादरिद्रता। अर्थात् अच्छी बात बोलने से सभी मनुष्य प्रसन्न होते हैं, अतः हमें अच्छे वचन बोलने में संकोच नहीं करना चाहिए। धन्यवाद।
अहो समीचीनम्। प्रिय मित्राणि, साम्प्रतम् अग्रे सरामः प्रसङ्ग प्रभागम् प्रति, यत्र अद्य भगवतः शिवस्य भावपूर्णम् स्तवनम् विदधाति अस्माकम् सहयोगिनी साधना शर्मा।
नमामि शमीशान निर्वाण रूपम् विभुम् व्यापकम् ब्रह्म वेद स्वरूपम् निजम् निर्गुणम् निर्विकल्पम् निरीहम् चिदाकाशमाकाशवासं भजेहम् निराकारमोङ्कारमूलं तुरीयं गिरा ज्ञानगोतीतमीशं गिरीशं करालं महाकालकालं कृपालं गुणागार संसार पारं नतोहम् तुषाराद्रिसङ्काश गौरं गभीरं मनोभूतकोटि प्रभाश्री शरीरं स्फुरन्मौलिकल्लोलिनी चारु गङ्गा लसद्भालबालेन्दुकण्ठे भुजङ्गा।
भूः श्रोतारः, सम्प्रति अग्रिमे साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विक वृत्तान्तः। साम्प्रतम् साप्ताहिकी वार्ताः आदाय उपस्थिता अस्ति निधिः झा।
प्रधानमन्त्री नरेन्द्र मोदी इंग्लैंड देशस्य किंग चार्ल्स तृतीय इत्यनेन सह अमेलित। तौ द्वैपाक्षिक विषयेषु भारत यूके सम्बन्धानां प्रगति विषये च चर्चाम् अकार्ष्टाम्। अवधेयास्पदं वर्तते यत् भारत यूके देशयोः ऐतिहासिक सम्बन्धः दृढः, बहुपक्षीयः, परस्पर लाभप्रदत्वेन च परिवर्तितोऽस्ति। उभौ देशौ उच्चस्तरीयं राजनैतिकं संवादमपि नैरन्तर्येण सम्पाद्यमानौ स्तः। स्वतन्त्र व्यापार सन्धिः FTA इत्यस्योपरि हस्ताक्षरानन्तरं सम्बन्धोऽयम् इतोऽपि दृढतरः भविष्यतीति अपेक्षते। सन्धौ व्यापार रक्षादीनि अनेकानि क्षेत्राणि सम्मिलितानि सन्ति। चतुर्दशोत्तर द्विसहस्रतम वर्षात् परं युनाइटेड किंगडम देशं प्रति श्रीमोदिनः एषा चतुर्थी यात्रा अस्ति, यत्र सः स्वस्य ब्रिटिश समकक्षेण सह विस्तृतं संवादं करिष्यति। केन्द्रीय नागरिकोड्डयन राज्यमन्त्रिणा मुरलीधर मोहोल इत्यमुना सन्दर्भेऽस्मिन् विज्ञापयता कथितं यत् पाकिस्तानीयं विमानानां भारतीय वायुमार्गे प्रवेश निषेधार्थं नोटम इत्यस्य अवधिः 25-2000 वर्षस्य 23 दिनांक पर्यन्तं विस्तारितः। तेनोक्तं यत् अयं विस्तारः निरन्तर रणनीतिक विचारान् प्रतिबिम्बयति।
प्रियाः श्रोतारः, साप्ताहिकी वार्ताभिः जागतिक घटना विषये ज्ञात्वा अनन्तरं पुनः उपस्थिताहम् ज्ञान विज्ञान प्रभागान्तर्गतम् एकम् साक्षात्कारम् आदाय। अस्माभिः साकम् संवादाय उपस्थितो अस्ति अस्माकम् सहयोगिना सुरेश चन्द्र शर्मणा सह जगद्गुरु रामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालयस्य दर्शन विभागस्य अध्यक्षः शास्त्री कोसलेन्द्र दास वर्यः।
संस्कृत संस्कृति समाराधकाः प्रियाः श्रोतृवर्याः, अस्माकं संस्कृतिः गुरु शिष्य परम्परां ख्यापयति। जगति संत गुरु परम्परायाम् अति विशिष्टाः जगद्गुरु रामानन्दाचार्य वर्याः। भगवत स्वरूप सदृशाणां जगद्गुरु रामानन्दाचार्याणां विषये संवादाय आकाशवाण्याम् अद्य अस्माभिः सह समुपस्थिताः सन्ति जयपुरस्थस्य जगद्गुरु रामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालयस्य दर्शन विभागाध्यक्षाः युव शास्त्रज्ञाः शास्त्री कौशलेन्द्रदास महाभागाः कौशलेन्द्रदास वर्याणां हर्षातिरेकाभिनन्दन वचोभिः आकाशवाणी पक्षतः अहं सुरेश चंद शर्मा हार्दिकम् अभिनन्दनं स्वागतञ्च करोमि।
धन्यवादाः सुरेश शर्म महोदयाः। अत्र आगत्य मम मनसि हर्षातिरेको जायत। सर्वेभ्यः श्रोतृवर्येभ्यः नमो नमः।
मान्याः संवाद प्रभागस्य एतस्य प्रथमे अंशे प्रश्नः यत् जगद्गुरु रामानन्दाचार्याणां जीवन विषये कृपया विज्ञापयन्तु। एतेषाम् आचार्यपादानां जन्म कुत्राभूत्, एतेषां गुरवः के आसन्, कृपया विज्ञापयन्तु।
वस्तुतः सुरेश शर्म महोदयाः, अस्माकं समेषां भारतीयानाम् इदं परमं सौभाग्यम् अस्ति यत् अस्यां भारतभूमौ बहवः आचार्याः प्रादुर्बभूवुः। एषु आचार्येषु वयं जानीमः भगवत्पाद श्री शङ्कराचार्यस्य नाम वयं सर्वेपि जानीमः, एवमेव शेषावताराः भगवन्तः श्रीमज्जगद्गुरु रामानुजाचार्याः आसन्, जगद्गुरु मध्वाचार्याः आसन्, एवमेव जगद्गुरु श्रीमन् निम्बार्काचार्याः, जगद्गुरु श्री महाप्रभवः वल्लभाचार्याः, चैतन्यमहाप्रभवः, एतादृशाः बहवः आचार्याः अत्र बभूवुः। एषु सर्वेष्वपि आचार्येषु अन्यतमाः आचार्याः सन्ति जगद्गुरु श्रीमद् रामानन्दाचार्यवर्याः। एते आचार्याः प्रयागराजे जनिरलब्ध्वा वाराणस्याम् आगत्य भक्तिसम्प्रदायं विस्तारयामासुः। एतेषां पितुर्नाम पण्डित श्री पुण्यसदन शर्मा, मातुश्च श्रीमती सुशीला देवी आसीत्। एतेषां जन्मनाम भगवत्पाद रामानन्दाचार्यानां, तत्र जन्मनाम विषये यदा वयं चिन्तयामः तर्हि एतेषां बहूनि नामानि विभिन्नेषु ग्रन्थेषु अस्माभिः प्राप्यन्ते। परं यदा श्रीमद् राघवाचार्याणां सन्निधौ आगत्य एतेषां वैष्णवीदीक्षा जाता तदा एतेषां रामानन्दाः इति जातम्। तदा रामानन्दाचार्याणां शिक्षा दीक्षा च वाराणस्याम् एव बभूव। एतेषाम् आचार्याः श्रीमद् राघवानन्दाचार्यवर्याः आसन्, ये वैष्णवसम्प्रदायस्य महान्ताः आचार्याः तदानीम् आसन्। एतेषां समयः प्रायः त्रयोदशशताब्द्यामेव सर्वैः विद्वद्भिः स्वीक्रियते। परम् एतेषाम् आचार्याणाम् इदं वैशिष्ट्यमस्ति यत् एतेषाम् आचार्याणां सान्निध्ये तत्र भक्तिसम्प्रदायस्य विशेषतः रामभक्तेः यत् प्रचारः अभूत् तत्तु अनुपमम् अस्ति। अतः रामभक्तिविस्तारकरूपेण रामानन्दाचार्याः अस्माभिः सर्वदा एव स्मर्यन्ते, सर्वैः वैष्णवैः भक्तैश्च सनातनधर्मावलम्बिभिः। एतेषां यत् मुख्यं स्थानमस्ति तत्तु वाराणस्यां पञ्चगङ्गाघट्टोपरि श्रीमठ इति नामकं स्थानमस्ति, तत्रैव रामानन्दाचार्याणाम् आवासः प्रवासश्च आसीत्।
मान्यवर्याः, अस्माभिः श्रूयते यद् एतेषां बहवः शिष्याः आसन्, एतेषां सिद्धान्तः कः?
सुरेश शर्म महोदयाः, सम्यक् प्रश्नः भवद्भिः यत्र कृतः। वस्तुतः रामानन्दाचार्याणां बहवः शिष्याः बभूवुः। तेषु सर्वेषु शिष्येषु तेषां द्वादशशिष्याः प्रमुखाः सन्ति। येषां द्वादशशिष्याणां नामानि अस्माभिः भक्तमालादिग्रन्थेषु प्राप्यन्ते तेषु अनन्तानन्दाचार्याः सन्ति, महात्मनः कबीरदासाः सन्ति, एवमेव सन्तः रविदासाः, महात्मनः धन्नाभक्ताः, सैनभक्ताः, पीपामहाराजाः, एतादृशाः बहवः भक्ताः तत्पदाश्रिताः शिष्याः सन्ति। परम् इदं तत्र वैशिष्ट्यमस्ति तेषां शिष्यपरम्परायाः यत् तत्र द्वादशशिष्येषु द्वे स्त्रीभक्ते तत्र स्ताः, एका पद्मावती अपरा च सुरसरी। वस्तुतः भगवत्पाद रामानंदाचार्याणां अयं शास्त्रानुकूलौ निर्णयः आसीत् यत् तेन वैष्णवमताब्ज भास्करे लिखिताः सर्वे प्रपत्तेरधिकारिणो मताः शक्ता विशक्ता पदयोर् जगत्प्रभुः नापेक्षते तत्र कुलं बलं च न चापि कालो न हि शुद्धता विवा जगत्प्रभोः भगवतः श्रीसीतासमन्वित रामचन्द्रस्य चरणारविन्देषु समेषां जीवानाम् अधिकारः अस्ति कीदृशानां जीवानां शक्ताः अशक्ताः ये शक्ताः सन्ति अशक्ता वा स्युः तत्र नापेक्षते तत्र कुलं बलं च कुलस्य बलस्य च तत्र अपेक्षा एव नास्ति ये केऽपि जीवाः सन्ति ते सर्वेऽपि जीवाः भगवच्चरणौ अवाप्तुं सर्वेषां तत्र अधिकारः अस्ति यतोहि भगवान् स्वयमेव अगीयत श्रीमद्भगवद्गीतायां ममैवांशो जीवलोके जीवभूतः सनातन सर्वेऽपि सनातनाः जीवभूताः भगवदंशाः जीवाः भगवन्तं प्राप्तुं शक्नुवन्ति अतः रामानन्दाचार्याणां सिद्धान्ते अस्पृश्यतायाः विषयः एव नास्ति सर्वेऽपि जीवाः भगवदंशाः तत्र स्त्री वा पुरुषो वा यः कोऽपि भवेत् तत्र सर्वेऽपि जीवाः भगवताः तत्र भक्तौ समेषां जीवानाम् अधिकारः अस्ति अतः रामानन्दाचार्याणां सिद्धान्ते विशिष्टाद्वैतसिद्धान्ते तेषां भक्तिसम्प्रदाये तत्र जात्याः अस्पृश्यतायाः वर्गस्य वर्णस्य वा चर्चा एव न भवति इदमेव वैशिष्ट्यमस्ति श्रीमद् रामानन्दाचार्य प्रकल्पितभक्तिसम्प्रदायस्य
मान्यवर्याः संस्कृतभाषायाः प्रोन्नतये आचार्यैः कति ग्रन्थाः विरचिताः एतेषां ग्रन्थानां विषये कृपया विज्ञापयन्तु
संस्कृतभाषायाः प्रोन्नतये आचार्यपादाः श्रीमद् रामानन्दाचार्यवर्याः ग्रन्थान् रचयामासु तेषु ग्रन्थेषु अन्यतमम् अस्ति श्री आनन्दभाष्यम् इदं हि आनन्दभाष्यं बादरायणविरचितब्रह्मसूत्रोपरि भाष्यमस्ति अस्मिन् भाष्ये श्रीमद्भिः आचार्यैः रामानन्दस्वामिभिः विशिष्टाद्वैतसिद्धान्तः स्वसिद्धान्तरूपेण संस्थापिताः तत्र एवमेव भगवत्पाद रामानन्दाचार्यैः श्रीरामार्चापद्धतिरिति नामकः ग्रन्थः विरचितः तत्र भगवत्पाद रामानन्दाचार्यैः भगवतः श्रीरामचन्द्रस्य सपर्यादितिः वर्णितः एवमेव वैष्णवानां के नियमाः सन्ति कथं तैः कालक्षेपः करणीयः एवमेव किं जाप्यं किं न जाप्यं किं तत्र केषां ग्रन्थानां पाठादि करणीयम् इति विषयम् अवलम्ब्य आचार्यपादैः तत्र एकः महान् ग्रन्थः विरचितः तद्ग्रन्थः अस्ति श्रीमद्वैष्णवमताब्जभास्करः अस्य ग्रन्थस्य प्रारम्भे एव आचार्यपादैः अयं संस्थापितः तत्र अस्माभिः सर्वैः भक्तैः भगवतः श्रीरामचन्द्रस्य चरणशरण अवाप्त्यै तत्र भगवतः श्रीरामचन्द्रस्य भक्तिरेव करणीया यतोहि भगवतः श्रीरामचन्द्रस्य कृपया एव सायुज्यमुक्तेः प्राप्तिर्भवति तत्र आचार्यपादाः विलिखन्ति श्रीमन्तं श्रुतिवेद्यमद्भुतगुणग्राम्याग्ररत्नाकरं प्रेयः स्वेक्षणसंसुलज्जितमयी जाताक्षिकोणेक्षितम् भक्ताशेषमनोविवाञ्छितचतुर्वरगप्रदं स्वर्द्रुमं रामं स्मेरमुखाम्बुजं शुचिमहानीलाश्मकान्तिं भजे अतः वस्तुतः संस्कृतभाषायाः प्रोन्नतये आचार्यपादैः ये ग्रन्थाः विरचिताः सन्ति तदनु तेषां परम्परायां बहवः महान्तः सज्जनाः सन्ताः आसन् यैः संस्कृतभाषायाः समृद्धये बहवः ग्रन्थाः विरचिताः सन्ति तेषु आचार्यपादाः श्रीमद्भगवदाचार्याः सन्ति एवमेव रघुवरा आचार्याः सन्ति वैष्णवाचार्याः सन्ति एते सर्वेपि आचार्याः प्रणम्याः वस्तुतः सम्प्रति श्रीमद् रामानन्दाचार्यवर्याणां महती आवश्यकता अस्ति यतोहि समाजे सामरस्यं स्यात् तत्र समरसतायाः प्रभावः स्यात् एतदर्थम् अस्माभिः सततं श्रीमद् रामानन्दाचार्याः संस्मरणीयाः प्रणम्याश्च
मान्यवर्याः जगद्गुरु रामानन्दाचार्याणां विषये भवद्भिः ख्यापितैः सुहृद्वचनैः वयं धन्याः एतस्मै संवादाय पौनःपुन्येन आकाशवाणीपक्षतः हार्दाः धन्यवादाः सादरं प्रणामाः
धन्यवादाः सुरेश शर्ममहोदयाः सर्वेभ्यः श्रोतृभ्यः पुनः पुनः नमस्कारान् वितीर्य विरमामि धन्यवादाः नमस्कारः
ज्ञानप्रदः संवादः एषः। अयि रसिकाः श्रोतारः, अधुना क्रमो वर्तते संस्कृत दिग्दर्शन प्रभागस्य, यत्र विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीया सहयोगिनी मुदिता वेतालः।
केन्द्रीय संस्कृत विश्वविद्यालयस्य वेदव्यास परिसरे संस्कृत भारत्याः अखिल भारतीय शिक्षक प्रशिक्षणम् आयोजितम्। जुलाई मासस्य द्वादश दिनात् एकविंश दिनं यावत् आयोजिते दश दिवसीय प्रशिक्षण कार्यक्रमे आदेशात् प्रतिभागिनः उपस्थिताः आसन्। श्री लाल बहादुर शास्त्री राष्ट्रिय संस्कृत विश्वविद्यालये अस्य मासस्य सप्तदशे दिने विद्यावारिधि सत्रीय पाठ्यक्रमस्य शुभारम्भो जातः। अत्रावसरे विश्वविद्यालयस्य डॉक्यूमेंटरी फिल्म माध्यमेन छात्रेभ्यः विश्वविद्यालयस्य गतिविधयः प्रदर्शिताः। केन्द्रीय संस्कृत विश्वविद्यालयेन संस्कृत भाषा शिक्षणाय कुशल भाषा शिक्षकाणां निर्माणाय अखिल भारत स्तरीयं एकविंशति दिवसीयं आवासीय प्रशिक्षणम् आयोजयिष्यते। एतदर्थम् आवेदनाय जुलाई मासस्य सप्तविंशो दिवसः अन्तिमावधिः वर्तते। धन्यवादः।
प्रियाः श्रोतारः, अधुना कार्यक्रमस्य अग्रे बालवल्लरी प्रभागे बालानां मनोरञ्जनाय भारतीय गौरवम् आधृत्य
सुषमा कुमारी प्रस्तौति एकां कवितां।
बालाः, अद्य वयम् एकं कवितापाठं कुर्मः। शीर्षकः शूराः वयम् धीराः वयम् भारतीयाः। शूराः वयम् धीराः वयम् वीराः वयम् सुतराम्। गुणशालिनो बलशालिनो जयगामिनो नितराम्। दृढमानसा गतलालसा प्रियहाससा हसततम्। जनसेवका अतिभावुका शुभचिन्तका नियतम्। धनकामना सुखवासना न च वञ्चना हृदये। ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये। गतभीतयो नृतनीतयो दृढशक्तयो निखिला। यामो वयम् समरङ्गणम् विजयार्थिनो बालाः। जगदीश हे परमेश हे सकलेश हे भगवन्। जय मङ्गलम् परमोज्ज्वलम् नो देहि परमात्मनम्। शूरा वयम् धीरा वयम् वीरा वयम् सुतराम्।
प्रियाः सहृदयाः श्रोतारः, बालवल्लरी प्रभागानन्तरम् अग्रिमः प्रभागो अस्ति एकं भारतं श्रेष्ठं भारतमिति, यत्र मम सहयोगी जतिन शर्मा श्रावयति संस्कृत हिन्दी मैथिली भाषासु कानिचन वाक्यानि।
श्रावणमासः हिन्दुपरम्परायाः कश्चन पवित्रमासः वर्तते। श्रावणमास हिन्दुपरम्परा का एक पवित्र मास है। श्रावणमास हिन्दू परम्पराक एकटा पवित्र मास होइत छै। अस्मिन् मासे भगवतः शिवस्य विशेष पूजा अर्चना क्रियते। इस मास में भगवान शिव की विशेष पूजा अर्चना की जाती है। एही मास में भगवान शिव के विशेष पूजा अर्चना कैल जाइत छै। श्रद्धालवः सम्पूर्णे मासे सोमवारस्य उपवासं कुर्वन्ति, सहैव शिव मन्दिरं गच्छन्ति। श्रद्धालु पूरे मास सोमवार का उपवास करते हैं और शिव मंदिर जाते हैं। श्रद्धालु पूरा मास सोम दिन उपास करै छथि आ शिव मंदिर जाय छथि।
निश्चितमेव ज्ञानवर्धकः स्यात् अयम् संगमः। अयि श्रोतृवृन्दाः, अधुना तु कालः समायातः प्रस्थान वेलायाः। अग्रिमे सप्ताहे अस्मिन् एव काले अभिनवम् एकम् अङ्कम् आदाय पुनः उपस्थास्यामहे। तावत्पर्यन्तम् भवन्तः सर्वे स्वीय जिज्ञासाम् प्रतिपुष्टि प्रक्रियाम् अस्मभ्यम् प्रेषितुम् शक्नुवन्ति। अस्माकम् ईमेल सङ्केतो वर्तते nhgsanskrit@gmail.com इति। नमो नमः।